अद्यन्दो तम् वृणीमहे होतारम् विश्वरेदसम् अस्य यज्ञस्य सुक्रतुम् अग्निमग्निम् हवेमभिः सदा हवन्त विश्पतिम् हव्यवाहम् पुरप्रियाम् अग्ने देवाम् इहावहजज्ञानो वृक्तबर्हिषे असि होता न ईड्याः ताम् उशतो विबोधजजदग्ने जासि दूत्यम् देवैरासत्सि बर्हिषे घृताः वरदेदिभः प्रतिस्मरिषतोदः अग्ने त्वम् रक्षस्विनाः अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्यवाड्युह्वास्यः कविमग्निमुपस्तु हि सत्यधर्माणमध्वरे देवममेव चातनम् यस्त्वामग्ने हविष्पतिर्दूतम् देव स पर्यति तस्य स्म प्रापिता भव यो अग्निम् देववीतये हविष्माम् आविवासते तस्मै पावकमृळय स नः पावगदे दिवाग्ने देवाम् इहावः उपयज्ञम् हविश्च नः स नस्तवा न आभरगयत्रेडनवीयसा रजिम् वीरवते विषम् अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः इमम् स्तोमञ्जुषस्वनः